एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री शेरबहादुर देउवा वदति शान्तये विकासाय च लोकतान्त्रिक वाम गठबन्धनम् आवश्यकम् वर्तते। चितवन जनपदीयेन लोकतान्त्रिक वाम गठबन्धनेन ह्य आयोजिताम् जनसभाम् सम्बोधयन् प्रधानमन्त्री देउवा अवासत स्थायी शान्तिम् संस्थाप्य विकासम् च विधाय देशम् समृद्धम् निर्मातुम् गठबन्धनम् आवश्यकम् अस्ति। संविधाने स्वेच्छाचारितया संसद विघटनस्य अधिकार कस्मै अपि प्रधानमन्त्रिणे नास्ति इति तर्कयन् प्रधानमन्त्री देवा अवोचत् वारद्वयम् विघटिता संसद गठबन्धनस्य दलैर्मिलित्वा प्रत्यावर्तिता अभूत्। सभायाम् नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः अब्रवीत् देशम् दुर्घटनातो रक्षितुम् गठबन्धनम् निर्मितम् वर्तते। अध्यक्ष प्रचण्डः देशे विपुल संघर्षस्य पश्चात् लोकतन्त्रम् प्राप्तमिति चर्चयन् गठबन्धनम् राष्ट्रे शान्ताय विकासाय प्रतिगमनस्य निराकरणाय प्रतिक्रान्तेः प्रतिकाराय च निर्मितमिति प्रत्यपादयत्। एकीकृत समाजवादिनः उपाध्यक्ष केशवलाल श्रेष्ठः शान्ताय समृद्धये च गठबन्धनस्य आवश्यकताम् दर्शयन् अगदत् परस्परम् निष्ठा प्रदर्शनीया। राष्ट्रिय जनमोर्चा दलस्य कार्यकारी अध्यक्ष रश्मिराज नेपाली अब्रवीत् स्थायी सर्वकाराय देशस्य समृद्धये च गठबन्धनम् निर्मितम् वर्तते। नेपाली कांग्रेस दलस्य सभामन्त्री डिला संग्रौला अकथयत् महिला हिंसायाः विभेदकारी विधिः परिमार्जनीयः। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली देश निर्माणस्य अभियाने ऐक्यबद्धतया सन्नद्धतायै कार्यकर्तृन् निर्दिशति। ह्यः कैलाली जनपदस्य लम्की स्थाने आयोजितायाम् जनसभायाम् अध्यक्ष ओली एमाले दलेतर दलानाम् कार्यकर्तृन् अपि देश निर्माणस्य अभियाने क्रियाशीलाः भवितुम् अन्वरुणत। ह्यः एव कैलाली जनपदस्य अत्तरिया स्थाने आयोजितायाम् नैर्वाचनिक्याम् सभायाम् अध्यक्ष ओली वित्तेन मतम् न विक्रेतुमपि मतदातृन् अन्वरुणत। अध्यक्ष ओली अवासत भ्रष्टाचरितैः जनैः निर्वाचने वित्त वितरणस्य सम्भावना भवति त्यतः मतदान समये मतदातृभिः सचेष्टैर्भाव्यम्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः कथयति जनतया प्राप्तः अधिकारः संरक्ष्यते। तनौ जनपदस्य भानुनगरपालिकायाः षष्ठवडा क्षेत्रवर्तिनी बरभञ्ज्याङ स्थाने ह्य आयोजिते कार्यक्रमे वरिष्ठ नेता पौडेलः अगदत् बलिदानेन त्यागेन च निर्मितेन संविधानेन प्रदत्तः अधिकारः आपयितुम् न दीयते। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की निगदति संविधानस्य रक्षायै सर्वासाम् जातिनाम् समुदायानाम् च अधिकारस्य स्थापनायै च गठबन्धनम् निर्मितमस्ति। सुनसरी जनपदस्य हरिनगरा ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य वसन्तपुरे ह्य संचारकर्मीसह मन्त्री कार्की अवोचत संचारस्य अभिव्यक्त्यश्च स्वतन्त्रतायै राष्ट्रस्य समृद्धये च आगामिनो निर्वाचनस्य पश्चादपि गठबन्धनम् आवश्यकम् वर्तते। नेकपा माओवादी केन्द्रस्य वरिष्ठोपाध्यक्ष नारायण काजी श्रेष्ठः भासते अग्रगामी परिवर्तनाय संविधानस्य लोकतन्त्रस्य च रक्षायै च गठबन्धनम् निर्मितम् वर्तते। अछाम जनपदस्य कमल बजार स्थाने आयोजितायाम् सत्ता गठबन्धनस्य संयुक्त नैर्वाचनिक सभायाम् वरिष्ठोपाध्यक्ष श्रेष्ठः अगदत् मार्गशीर्षस्य चतुर्थ दिवसस्य निर्वाचनम् देशे लोकतन्त्रस्य निर्धारकम् निर्वाचनम् अस्ति त्यतः निर्वाचनमेतद् गभीरेण मन्त्र सभायाम् एकीकृत समाजवादी दलस्य उपमहासचिव गंगाधर तुलाधरः देशस्य समुन्नत्यै स्वाधीनतायाः कृते च गठबन्धनम् निर्मितम् अस्तीति अवोचत। नेपाली सेनाया आगामिनो मार्चशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानम् प्रतिनिधिसभायाः प्रदेशसभानाम् च सदस्यानाम् निर्वाचनम् लक्ष्यीकृत्य केन्द्रे प्रदेशेषु जनपदेषु च एकीकृत निर्वाचन सुरक्षा कक्ष संस्थाप्य संचालितो वर्तते। मतदानस्थल सुरक्षा मतदान सामग्री परिवहनातिरिक्त सैन्यबल विमान सुरक्षा निरीक्षण सहितायाः निर्वाचन सम्बद्धायाः सम्पूर्ण सुरक्षायाः कृते आसन्न पञ्चसप्ततिः सहस्राणि जनशक्ति क्रियाशीला भवतीति सैनिक जनसम्पर्क सूचना निर्देशनालयो ज्ञापयति। निर्वाचनस्य सुरक्षार्थम् अत्यधिक सप्तशत स्थानेषु सेना परिचालन पुरस्कारम सन्नद्धा स्थिति नेपाली सेना सूचयति। सेना मतदान स्थलस्य बाह्य परिवेष्टने संस्थाय सुरक्षाम प्रदास्यति। सेनया निर्वाचन सुरक्षाया सन्दर्भे अधुनावधि द्वात्रिंशद उत्तराष्ट शतम् बम्बास्त निष्क्रिय कारिण समूहा परिचालिता सन्तीति संसूच्य अवशिष्टा त्रिचत्वारिंशद उत्तर शतम् समूहा तत्परावस्थायाम् विद्यन्ते इति ज्ञापितमस्ति। शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेल कथयति शिक्षकाणां मर्यादा क्रमस्य विषयेण शीघ्रं निर्णय प्राप्यते। ह्य बागलुङ जनपदस्य गलकोट बुर्दिवाङ स्थानयोः वामो लोकतान्त्रिक गठबन्धनस्य प्रत्याशिभिः सह शैक्षिक्यां वृत्तिगतायाञ्च अन्तरक्रियायाम् असौ संघीय शिक्षा अधिनियमः विधायन समितो प्राप्तोस्तीति असूचयत्। शिक्षा मन्त्री पौडेलः शिक्षकाणां मर्यादा क्रमस्य प्रस्तावः अग्रे वर्धापितोस्तीति सूचयन् गृहमन्त्रालयेन सह समन्वयं विधाय विषयोऽसौ शीघ्रं निर्णेष्यते इति अज्ञापयत्। आगामी निर्वाचनस्य मतदानस्य दिने अत्यावश्यक सेवायै यातायातानुमतिपत्रस्य आवश्यकता न भविष्यति। निर्वाचन आयोगेन मार्गस्य चतुर्थ दिवसे सम्पत्स्यमानस्य मतदानस्य दिने अत्यावश्यक सेवायाः यातायात साधनानि प्रयोक्तुं यातायातानुमतिपत्रेण विना सहजतया गमनागमनस्य व्यवस्था विहिता वर्तते। अशक्त वाहकयानानां सवाहनानां अग्निशमन यन्त्रस्य पेयजलयानस्य अवकरयानस्य दुग्धयानस्य दूरसञ्चार सेवायै केवल तन्त्री सञ्जाल सेवायै च प्रयोक्तव्यानां यानानां चिकित्सालये कार्यरतानां प्राप्त परिचय पत्राणां चिकित्सकानां स्वास्थ्यकर्मिणां कर्मचारिणां च कृते गमनागमनाय प्रयुक्तव्यानां यातायात साधनानां च कृते यातायातानुमतिपत्रं ग्रहणीयं न भविष्यतीति आयोगेन ज्ञापितं वर्तते। एवमेव प्रचलित विधेयरनुसारेण पञ्जीकारितानि प्रेस काउन्सिल नेपाले सूचीकृतानि सम्बद्ध संचार गृहात् प्राप्त परिचय पत्रैः संचारकर्मिभिः प्रयुक्तव्यानि यातायात साधनानि च निर्वाधं संचालयितुं शक्यन्ते। निर्वाचन आयोगेन प्रदत्त परिचय पत्रवाहकै पर्यवेक्षकैः अवलोकनकर्तृभिः अनुगमनकर्तृभिश्च प्रयोक्ष्यमाणानां यातायात साधनानां कृते व्यञ्जन फलपुष्प विद्युत सेवाभ्यः प्रयोक्तव्यानां साधनानां कृते कूटनीतिक नियोगानां यातायात साधनानां कृते च यातायातानुमतिपत्रं नापेक्षते इति आयोगेन ज्ञापितमस्ति।